इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य मिजोरम मणिपुर असम राज्यानां यात्रायां भविष्यति, यत्र सः बहुविध विकास परियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। श्रीमोदी सर्वादौ मिजोरम राज्यं गमिष्यति, यत्र सः अद्य प्रातः आइजोल नगरे 900 कोटि रूप्यकाणां विविध विकास परियोजनानां शिलान्यासम् उद्घाटनं च विधास्यति। सः तत्र एकां जनसभाम् अपि सम्बोधयिष्यति। प्रधानमन्त्री वैरावी सैरांग नूतन रेलमार्ग परियोजनायाः उद्घाटनम् अपि करिष्यति। इतिहासे प्रथमवारं एतत् रेलमार्गं मिजोरम राज्यस्य राजधानीं आइजोल नगरं भारतीय रेल मार्ग जालेन सह संयोजयिष्यति। केन्द्रीय रेलमंत्री अश्विनी वैष्णव अवदत् यत् एषा परियोजना मिजोरम राज्यस्य जनानां जीवने महत्वपूर्णानि परिवर्तनानि आनयिष्यति।
Bhairavi Sarang project is a very important project for connecting Mizoram with the railway network. This project has been constructed under great challenges. So there is a new tunneling method which has been created in this project from Bhairavi to Sarang. In a distance of 51 kilometers, there are 45 tunnels and 55 bridges. So these are very complex projects. One of the bridges is actually taller than the Qutub Minar. We will be starting 3 trains. One is Rajdhani Express to Delhi. Second is Kolkata. We are connecting tri-weekly express. Then Mizoram Express.
ततः परं प्रधानमन्त्री मणिपुरं गत्वा 800 कोटि रूप्यकाणाम् अनेकासां विकास परियोजनानां शिलान्यासम् उद्घाटनञ्च करिष्यति। प्रधानमन्त्री मोदी तदनन्तरम् असमराज्यं गत्वा अद्य सायंकाले गुवाहाट्यां भारतरत्न डॉ भूपेन्द्र हजारिका वर्यस्य शततमस्य जन्मवार्षिकोत्सवे भागं ग्रहीष्यति। नेपालस्य पूर्व मुख्य न्यायाधीशा सुशीला कार्की इत्येषा नेपालस्य अन्तरिम सर्वकारस्य नेतृत्वं कुर्वन्ती प्रथमा महिला प्रधानमन्त्री अभवत्। अवधेयं यत् केपी ओली इत्यनेन स्वसर्वकारस्य विरुद्धं बृहद् भ्रष्टाचार विरोध प्रदर्शनानन्तरं स्वपदात् त्यागपत्रं प्रदत्तम्। जंजी प्रदर्शनकारीणां राष्ट्रपतेः रामचन्द्र पौडेलस्य सेनाप्रमुखस्य अशोक राज सिग्डेलस्य च मध्ये सर्वसम्मत्याः अनन्तरम् एषः निर्णयः कृतः। सुश्री कार्की नेपालदेशस्य प्रथमा महिला मुख्यन्यायाधीशा आसीत्। प्रधानमन्त्री नरेन्द्रमोदी गत सायं नवदिल्ल्यां ज्ञानभारतमित्यस्मिन् विषये अन्ताराष्ट्रिय सम्मेलने भागम् अभजत्। सः पाण्डुलिप्याः अंकीकरणस्य संरक्षणस्य जनपरिवेषणस्य च त्वरितरूपेण निष्पादनाय समर्पितं ज्ञानभारतं पोर्टल इति डिजिटल मञ्चस्य शुभारम्भोऽपि कृतवान्। अवसरेऽस्मिन् सभामपि सम्बोधितवान्। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् ज्ञानभारतं मिशनेति भारतस्य संस्कृतेः साहित्यस्य चेतनायाः च स्वरः भवितुं सज्जः अस्ति। अन्तर्राष्ट्रिय सम्मेलने जनसमूहं सम्बोधयन् श्रीमोदी अवदत् यत् भारते विश्वस्य बृहत्तमः प्रायः 1 कोटि पाण्डुलिपयः सन्ति। तेनोदीरितं यत् सम्पूर्णे इतिहासे प्रायशः कोटिशः पाण्डुलिपयः नष्टाः अभवन्, परञ्च अवशिष्टाः पाण्डुलिपयः प्रदर्शयन्ति यत् अस्माकं पूर्वजाः ज्ञाने विज्ञाने शिक्षणे च कियन्ति समर्पिताः आसन्। नेशनल पेमेंट कॉर्पोरेशन ऑफ इंडिया NPCI इत्यनेन ग्राहक व्यापारी इत्येतयोः मध्ये UPI माध्यमेन धन हस्तांतरण सीमायां महत्वपूर्णं संशोधनं कृतम्, यत् अस्य मासस्य 15 दिनांक पर्यन्तं भविष्यति। उपयोगकर्ता अधुना सत्यापित श्रेणीभ्यः एकस्मिन्नेव दिने 10 लक्ष रूप्यकाणि यावत् UPI माध्यमेन प्रदातुं शक्नोति। क्रीडावार्तायां 20तमं विश्व एथलेटिक्स चैंपियनशिप प्रतिस्पर्धा अद्य जापानदेशस्य टोक्यो नगरे आरभ्यते। अस्मिन् मासे 18 दिनांक पर्यन्तं एषा स्पर्धा प्रचलिष्यति। इति वार्ताः।